ओम अथ दशमोऽध्याय ब्रह्म विष्णुभ्याम पंचकृत्यम ओंकार मंत्रम चोपदिश्य शिवस्य अंतर्धानम ब्रह्म विष्णुवूचतुः सर्गादि पंचकृत्यस्य लक्षणं ब्रूहिणो प्रभो शिव उवाच मत्कृत्य बोधनं गुह्यं कृपया प्रब्रवीमि माम सृष्टिस्थितिश्च संहारस्थिरोऽभावोऽप्यनुग्रहः पञ्चैव मे जगत्कृत्यं नित्यसिद्धमजाच्युतौ सर्ग संसार संब्रह्मस्तत्प्रदिष्टा स्थितिर्मता संहारो मर्दनं तस्य तिरोभावस्तु दुःक्रमः तन्मोक्षो अनुग्रहस्तन्मे कृत्यमेवं हि पञ्चकं कृत्यमेतद् अवहत्यन्यत्तूष्णीं गोपुरबिम्बवत् सर्गादि यच्चतुःकृत्यं संसार परिजृम्भनं पञ्चमं मुक्तिहेतुर्वै नित्यं मयि च सुस्थिरम् तदिदं पञ्चभूतेषु दृश्यते मामकैजनैः सृष्टिर्भूमौ स्थितिस्तोये संहारः पावके तथा तिरोभावे अनिले तद्वत् अनुग्रह इहाम्बरे सृज्यते धरया सर्वम् अद्भिः सर्वम् प्रवर्धते अर्द्यते तेजसा सर्वम् वायुना चापनीयते व्योम्ना अनुगृह्यते सर्वम् येयम् एवम् हि सूरिभिः पञ्चकृत्यमिदम् वोढुम् ममास्ति मुखपङ्चकम् चतुर्दिक्षु चतुर्वक्त्रम् तन्मध्ये पञ्चमम् मुखम् युवाभ्याम् तपसा लब्धम् एतत् कृत्यद्वयम् सुतौ सृष्टिश्चित्यभिदम् भाग्यम् मत्तः प्रीतात् अतिप्रियम् तथा रुद्रमहेशाभ्याम् अन्यत् कृत्यद्वयम् परम् अनुग्रहाख्यम् केनापि लब्धुम् नैव हि शक्यते तत्सर्वम् पौर्विकम् कर्म युवाभ्याम् कालविस्मृतम् न तद्रुद्रमहेशाभ्याम् विस्मृतम् कर्म तादृशम् रूपे वेषे च कृत्ये च वाहने चासने दधा आयुधादौ च मत्साम्यम् अस्माभिस्तत्कृते कृतम् मध्यानविरहाद्वत्सौ मौढ्यम् वामेवमागतम् मज्ञाने सदिमैवम् स्यान्मानम् रूपम् महेशवत् तस्माद् मज्ञानसिद्ध्यर्थम् मन्त्रम् ओङ्कारनामकम् इतः परम् प्रजपतम् मामकम् मानभञ्जनम् उपादिशम् निजम् मन्त्रम् ओङ्कारम् गुरुमङ्गलम् ओङ्कारो मन्मुखाज्जज्ञे प्रथमम् मत्प्रबोधकः वाचकोऽयमहम् वाच्यो मन्त्रोऽयम् हि मदात्मकः तदनुस्मरणम् नित्यम् ममानुस्मरणम् भवेत् अकार उत्तरात् पूर्वम् उकारः पश्चिमाननात् मकारो दक्षिणमुखाद् बिन्दुः प्राङ्मुखतस्तथा नादो मध्यमुखादेवम् पञ्चधासौ विजृम्भितः एकीभूतः पुनस्तद्वद् ओमित्येकाक्षरो भवत् नामरूपात्मकम् सर्वम् वेद भूतकुलद्वयम् व्याप्तमेतेन मन्त्रेण शिवशक्त्योश्च बोधकः अस्मात् पञ्चाक्षरम् जज्ञे बोधकम् सकलस्य तत् अकारादिक्रमेणैव नकारादि यथाक्रमम् अस्मात् पञ्चाक्षराज्जाता मातृकाः पञ्चभेदः तस्माच्चिरश्च दुर्वक्त्रात् त्रिपाद् गायत्रिदेवधी वेदः सर्वस्ततो जज्ञे ततो वै मन्त्रकोटयः तत्तन्मन्त्रेण सत्सिद्धिः सर्वसिद्धिरितो भवेत् अनेन मन्त्रकन्देन भोगो मोक्षश्च सिद्ध्यति सकला मन्त्रराजानः साक्षाद्भोगप्रदा शुभाः नन्दिकेश्वर उवाच पुनस्तयोस्तत्र तिरःपटम् गुरुः प्रकल्प्य मन्त्रम् च समादिशत्परम् निधाय तच्चीर्ष्णीकराम्बुजम् शनैर् उदङ्मुखम् संस्थितयोः सहाम्बिकः त्रिरुच्चारयाग्रहीन्मन्त्रम् यत्र तन्त्रोक्ति यन्त्रतन्त्रोक्तिपूर्वकम् शिष्यौ च तौ दक्षिणायाम् आत्मानम् च समर्पयत् प्रबद्धास्तौ किरतौ ददन्तिके तमोचतुर्देववरम् जगद्गुरुम् ब्रह्माच्युतावूचतुः नमो निष्कलरूपाय नमो निष्कलतेजसे नमः सकलनाथाय नमस्ते सकलात्मने नमः प्रणव वाच्याय नमः प्रणवलिङ्गिने नमः सृष्ट्यादिकर्त्रे च नमः पञ्चमुखाय ते पञ्चब्रह्मस्वरूपाय पञ्चकृत्याय ते नमः आत्मने ब्रह्मणे तुभ्यम् अनन्तगुणशक्तये सकलाकलरूपाय शम्भवे गुरवे नमः इति स्तुत्वा गुरुम् पद्यै ब्रह्म विष्णु च नेमतुः ईश्वर उवाच वत्सकौ सर्वतत्त्वम् च कथितम् दर्शितम् च वाम् जपदम् प्रणवम् मन्त्रम् देवीधीष्टम् मदात्मकम् ज्ञानम् च सुस्थिरम् भाग्यम् सर्वम् भवति शाश्वतम् आर्द्रायम् च चतुर्दश्याम् तज्जाप्यम् त्वक्षयम् भवेत् सूर्यगत्या महाद्रायाम् एकम् कोटिगुणम् भवेत् मृगशीर्षान्तिमो भागः पुनर्वस्वादिमस्तता आर्द्रासमम् सदा ज्ञेयम् पूजा होमादितर्पणे दर्शनम् तु प्रभाते च प्रातः सङ्गतकालयोः चतुर्दशी तथा ग्राह्या निशीतव्यापिनी भवेत् प्रदोषव्यापिनी चैव परयुक्ता प्रशस्यते लिङ्गम् वेदम् च मे तुल्यम् यजताम् लिङ्गमुत्तमम् त तस्माल्लिङ्गम् परम् पूज्यम् वेदादपि मुमुक्षुभिः लिङ्गमोङ्कार मन्त्रेण वेदम् पञ्चाक्षरेण तु स्वयमेव हि सद्रव्यैः प्रतिष्ठाप्यम्बरैरपि पूजयेत् उपचारैश्च तद्मत्पदम् सुलभम् भवेत् इति शास्यत भाषिष्यौ तत्रैवान्तर्हितः शिवः ओम् इति श्रीशिवमहापुराणे प्रथमायाम् विद्येश्वरसंहितायाम् दशमोऽध्यायः ओम्।